नमस्सर्वेभ्यः अद्य शिक्षावर्गस्य पञ्चविंशः पाठः डिसेम्बर् मासस्य अष्टमः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरुः मम पाहि गुरो शत्रु प्रत्ययस्य सर्वेषु लिङ्गेषु कथं रूपाणि भवन्ति तेषां भिन्नासु विभक्तिषु प्रयोगः कथं कर्तव्यः इति ज्ञातवन्तः काव्यांशेषु किरातार्जुनीयस्य काव्यकथाम् अपि गतवर्गे पठितवन्तः अद्य वयम् अग्रे शानच् प्रत्ययस्य विषये किञ्चित् जानीमः शत्रुशानच् प्रत्ययद्वयं समान अर्थे भवति भिन्नेभ्यः धातुभ्यः आदौ कानिचन उदाहरणानि पश्यामः भक्तः वन्दमानः स्तोत्रं गायति सो भगवन्तं नमस्कुर्वन् स्तोत्रं गायति इत्यर्थः निर्धनः धनं लभमानः सन्तोषम् अनुभवति धनं प्राप्नुवन् सन्तोषम् अनुभवति चन्द्रः आकाशे प्रकाशमानः सर्वान् आनन्दयति तत्र वन्दमानः लभमानः प्रकाशमानः एतानि पदानि शानच्च प्रत्ययान्तानि सन्ति शानच् प्रत्ययः शत्रुप्रत्ययस्यैव अर्थे भवति उभयोः प्रत्यययोः अर्थः समानः क्रियाद्वयं समानकाले क्रियते क्रियायाः वर्तमानत्वं बोधयति कर्ता अपि तत्र समानः भवति तत्र आत्मनेपदिभ्यः धातुभ्यः शानच् भवति धातवः त्रिविधाः इति ज्ञातवन्तः परस्मैपदिनः आत्मनेपदिनः उभयपदिनः उभयपदिभ्यः परस्मैपदप्रत्ययाः अपि भवन्ति आत्मनेपदप्रत्ययाः अपि भवन्ति अतः उभयपदिभ्यः धातुभ्यः अपि शानच् भवति आत्मनेपदिभ्यः अपि भवति सो पठति पठन् इति परस्मैपदी धातुः वन्दते वन्दमानः तत्र शत्रुप्रत्ययस्य अर्थे शानच् भवति यदि धातुः उभयपदी यथा पच् धातुः पचति पचते इति उभयम् अस्ति तदा पचन् पचमानः इति उभयं भवति तदा अर्थे तावान् भेदः न भवति तत्र शानच् प्रत्ययस्य रूपेषु मुख्यः प्रधानः अंशः भवति कुत्र मान इति श्रूयते कुत्र आन इति श्रूयते इत्यस्य ज्ञानम् उदाहरणं पश्यामः चेत् वन्दमानः लभमानः वीक्षमाणः भाषमाणः प्रकाशमानः सर्वत्र मान इति श्रूयते अन्येषु तु कुर्वाणः शयानः भुञ्जानः ब्रुवाणः मन्वानः इत्यादिषु मान इति नास्ति आन इति अस्ति वस्तुतः प्रत्ययः आन इत्येव शानच् इति भवति तत्र शकारः यथा शत्रु प्रत्यये शकारस्य ऋकारस्य च लोपेन अत् इति भवति एवं शानच् इत्यत्र शकारः चकारश्च गच्छति चेत् मध्ये आन इति भवति कदाचित् तस्य मकार आगमः भवति येन मान इति रूपं सिद्ध्यति सो केषाञ्चित् धातूनां विषये मकारः भवति केषाञ्चित् धातूनां विषये न भवति. कुत्र भवति इति ज्ञातव्यम्. तत्र सरलः उपायः अस्ति. यदि स्मरन्ति शत्रुप्रत्ययविषये, शत्रुप्रत्ययान्तं रूपं ज्ञातुं लट्लकारस्य प्रथमपुरुषस्य बहुवचनरूपं दृष्टवन्तः, किल? कुर्वन्ति तर्हि कुर्वत् अथवा कुर्वन्, पठन्ति पठन्, नृत्यन्ति नृत्यन्. एवम् अत्रापि बहुवचनरूपं पश्यामः. यदि बहुवचनरूपे अन्ते इति श्रूयते तर्हि शानच् रूपे मान इति भवति. यथा वन्दते वन्देते वन्दन्ते अन्ते अस्ति, तत्र वन्दमानः. लभते लभेते लभन्ते लभमानः. युध्यते युध्येते युध्यन्ते युध्यमानः. प्रार्थयते प्रार्थयेते प्रार्थयन्ते प्रार्थयमानः. मन्यते मन्येते मन्यन्ते मन्यमानः. सो यत्र यत्र न्ते इति बहुवचनरूपे भवति तत्र तस्य स्थाने मान इति योजयामः चेत् शानजन्तं रूपं लभ्यते. कदाचित् अन्ते इति न भवति, अते इति भवति. यथा कुरुते अथवा जानीते जानाते जानते, तत्र मान न भवति, केवलम् आन भवति. सो जानानः, जान आनः जानानः. सो भुङ्क्ते भुञ्जाते भुञ्जते. भुञ्जते इति बहुवचनम्, अत्रापि अन्ते नास्ति, अते एव अस्ति. सो तत्रापि भुञ्ज आनः भुञ्जानः. सो दत्ते ददाते ददते ददानः. अधीते अधीयाते अधीयते. सो अते इत्यस्ति, सो ते इति निष्कास्य अधीयानः. शेते शयाते शेरते शयानः. सो एवं यत्र अन्ते इति बहुवचनरूपे भवति तत्र मान इति भवति शानच् प्रत्यये. यत्र तु अते इति भवति तत्र आन इति भवति इति ज्ञातुं शक्यते. सो शिक्षायाः पाठ्यपुस्तकेषु अन्यः उपायः दत्तः अस्ति. तत्र एकवचनरूपं पश्यामः, तत्र ते इत्यस्मात् पूर्वम् अकारः अस्ति चेत् तत्र माना भवति इति, तदपि युक्तमेव. सो यथा अते वन्दते लभते युध्यते प्रार्थयते मन्यते. सो तत्र अकारः अस्ति चेत् मान भवति. जानीते भुङ्क्ते दत्ते अधीते शेते इत्यादिषु तन्नास्ति, अतः आन इति भवति. सो तदपि युक्तमेव. कुत्र दोषः अस्ति महोदय? इस् देर् ए टैपिङ्ग् एरर्? हा अत्र तर्हि आनः इति भवेत्, न तु मानः इति. सो धन्यवादाः. सो यदि एवम् अनेन क्रमेणापि ज्ञातुं शक्यते, केवलं बहुवचनरूपं दृष्ट्वा अपि ज्ञातुं शक्यते. सो बहुवचनरूपे सारल्यं यत् शत्रुप्रत्ययान्तरूपमपि शानच् प्रत्ययान्तरूपमपि सरलतया ज्ञातुं शक्यते. अत्र अन्यः एकः विषयः अस्ति, सः सामान्यविषयः, पूर्वमपि बहुभिः ज्ञातं स्यात्, तथापि प्रसङ्गवशात् वदामि. णत्वम् इति किञ्चित् कार्यं सर्वत्र भवति, न केवलम् अत्र, सर्वत्र अस्य उपयोगः भवति. शानच् प्रत्यये अपि भवति, अतः तद्विषये किञ्चित् जानीमः. ततः पूर्वं राव् महोदय प्रश्नः अस्ति. वीरभद्रराव् महोदय प्रश्नः अस्ति वा? णत्वं बहुत्र भवति, यथा भोजनं, दर्शनम् इत्यादिषु. यत्र यत्र नकारः अस्ति तत्र सर्वत्र णत्वस्य प्रसक्तिः भवति. अतः संक्षेपेण किञ्चित् वदामि, कुत्र णत्वं भवति इत्यत्र सामान्यनियमः. णत्वप्रकरणं दीर्घमेव, तत्र सामान्यसूत्राणि सन्ति, तस्य अपवादाः अपि भवन्ति. किन्तु सामान्यनियमं वा जानीमः चेत् बहुत्र उपयोगाय भवति. तदर्थं किञ्चिदिव उच्यते. कुत्र नकारः, णत्वम् इत्युक्ते किम्? नकारस्य स्थाने णकारः भवति, तस्य पारिभाषिकं पदमस्ति णत्वम्. यथा अकारान्तशब्दस्य इदानीं देवशब्दः अस्ति चेत् देवेन इति भवति, गजशब्दः अस्ति चेत् गजेन इति भवति, किन्तु रामशब्दः अस्ति चेत् रामेण इति भवति. तत्र वस्तुतः सः नकारः, सः णकारः जातः. तत् कार्यं णत्वम् इति कथ्यते. कदा नकारः णकारः नकाररूपेण परिवर्तते इति प्रश्नः. तत्र प्रथममस्ति, निमित्तं भवति सामान्यतः रेफः अथवा षकारः, र ष. सो एतद् वर्णद्वयं भवेत्. सो दीस् टु आर् द निमित्त फार् णत्व. सो यदि रेफः षकारः अस्ति, तस्मात् परस्य नकारस्य णकारः भवति. सो रेफात् षकारात् परस्य नकारस्य णकारः भवति. यथा तीर् नः इत्यस्ति, तीर् इत्यत्र रेफः, ततः नकारः, तस्य णकारे तीर्णः इति भवति. एवमेव कृष् नः, षकारः अस्ति, षकारानन्तरं नकारः अस्ति, तस्य णकारः भवति. सो कदा भवति? रेफः अथवा षकारः, तस्मात् साक्षात् नकारः परतः अस्ति चेत् भवति. सो तीर्णः कृष्णः. अन्यदपि अस्ति, रेफः षकारः एवं नकारः एतयोः मध्ये अन्ये केचन वर्णाः सन्ति चेदपि णत्वं भवति. के वर्णाः इति नियतम् अस्ति. स्वरः अ आ इ ई, यः कोऽपि स्वरः, ह य व र, एते वर्णाः. कवर्गः, पवर्गः, अनुस्वारः. व्याकरणपरिभाषया अस्य स्मरणं सुलभं, यतोहि अट्कुप् वाङ्नुम् इति कथ्यते. किन्तु येषां सूत्रज्ञानं नास्ति, एते वर्णाः. सो रेफः षकारः भवति, नकारः भवति, मध्ये विद्यमानाः सर्वेपि वर्णाः एतेषु अन्तर्भवन्ति चेत् नकारस्य णकारः भवति. उदाहरणं पश्यामः. रामेण इति अस्ति, यथा देवेन, गजेन, एवं रामेण इति भवति. तत्र किं किम् अस्ति इति पश्यामः चेत्, ऋ आ म ए न अ. सो रेफः अस्ति, नकारः अस्ति, मध्ये किं किम् अस्ति? आकारः स्वरः, मकारः पवर्गस्य वर्णः, एकारः स्वरः. सो मध्ये विद्यमानाः सर्वेपि वर्णाः ಏತೇಷು ಅಂತರ್ಭವಂತಿ ಚೇತ್. ರಿಮೆಂಬರ್, ಆಲ್ ಇಂಟರ್ವೀನಿಂಗ್ ಲೆಟರ್ಸ್ ಶುಡ್ ಫಾಲ್ ಇನ್ ಟು ಒನ್ ಆಫ್ ದೀಸ್ ಕ್ಯಾಟಗರೀಸ್. ಇಟ್ ಕುಡ್ ಬಿ ಎನಿಥಿಂಗ್, ಎನಿ ನಂಬರ್, ಅಂಡ್ ಇಟ್ ಕುಡ್ ಬಿ ಎನಿ ಆಫ್ ದೀಸ್. ಕಿಂತು ಮಧ್ಯೆ ವಿದ್ಯಮಾನ ಸರ್ವೇಪಿ ವರ್ಣಾ ಏತೇಷು ಅಂತರ್ಭವಂತಿ ಚೇತ್ ಣತ್ವಂ ಭವತಿ ರಾಮೇಣ ಇತಿ ಭವತಿ. ಏವಮೇವ ಕ್ಷೇಪನಂ ಇತಿ ಅಸ್ತಿ. ಸೊ ಕ ಷಕಾರಃ ತತ್ರ ಕಕಾರಃ ಷಕಾರಃ ಚ ಅಸ್ತಿ ಇತಿ ಸ್ಮರ್ತವ್ಯಂ. ಏ ಪ ಅ ನ ಅ ಮ ಏತೇ ವರ್ಣಾಃ ಸಂತಿ. ಸೊ ಷಕಾರಃ ನಕಾರಃ ಮಧ್ಯೆ ಕಿಂ ಕಿಂ ಅಸ್ತಿ, ಏಕಾರಃ ಸ್ವರಃ, ಪಕಾರಃ ಪವರ್ಗಸ್ಯ ವರ್ಣಃ, ಅಕಾರಃ ಸ್ವರಃ. ಏವಂ ಅತ್ರಾಪಿ ಣತ್ವಂ ಭವತಿ ಕ್ಷೇಪಣಂ ಇತಿ ಭವತಿ. ಯದಿ ಮಧ್ಯೆ ಏಕಃ ಅಪಿ ವರ್ಣಃ ಭಿನ್ನಃ ಅಸ್ತಿ ಏತೇಷು ನ ಅಂತರ್ಭವತಿ ತದಾ ಣತ್ವಂ ನ ಭವತಿ ದರ್ಶನಂ ಇತ್ಯಸ್ತಿ. ಅತ್ರ ಪಶ್ಯಂತು ಅತ್ರಾಪಿ ರೇಫಃ ಅಸ್ತಿ ನಕಾರಃ ಅಸ್ತಿ ದರ್ಶನಂ. ಸೊ ರೇಫಃ ನಕಾರಃ ಅಸ್ತಿ, ಮಧ್ಯೆ ಅಕಾರಃ ಅಸ್ತಿ ಅಕಾರಃ ಸ್ವರಃ, ಕಿಂತು ಶಕಾರಃ ಅಸ್ತಿ, ಶಕಾರಃ ಏತೇಷು ನಾಸ್ತಿ. ಸ್ವರಃ ನ ಹಯವರ ನ ಕವರ್ಗಃ ನ ಪವರ್ಗಃ ನ ಅನುಸ್ವಾರಃ ನ, ಅತಃ ದರ್ಶನಂ ಇತ್ಯತ್ರ ಣತ್ವಂ ನ ಭವತಿ. ನಿಷದನಂ ಇತಿ ಕಿಮಪಿ ಪದಮಸ್ತಿ. ಸೊ ಷಕಾರಃ ಅಸ್ತಿ ನಕಾರಃ ಅಸ್ತಿ, ಮಧ್ಯೆ ಅಕಾರಃ ಸ್ವರಃ ಕಿಂತು ದಕಾರಃ ಅಸ್ತಿ. ಸೊ ದಕಾರಃ ಏತೇಷು ನಾಂತರ್ಭವತಿ, ಅತಃ ಣತ್ವಂ ನ ಭವತಿ. ಸಾಮಾನ್ಯತಃ ವಯಂ ಕಿಂ ಚಿಂತಯಾಮಃ, ರೇಫಃ ಷಕಾರಃ ಅಸ್ತಿ ಚೇತ್ ನಕಾರಃ ಇತಿ ಬಹುತ್ರ ಪ್ರಾಥಮಿಕ ಸ್ತರೇಷು ಪಠಾಮಃ. ಕಿಂತು ಯತ್ರ ಯತ್ರ ರೇಫಃ ಅಥವಾ ಷಕಾರಃ ತತ್ರ ಣತ್ವಂ ನ ಭವತಿ, ಅತಃ ಕುತ್ರ ಭವತಿ ಕುತ್ರ ನ ಭವತಿ ಇತಿ ಜ್ಞಾತವ್ಯಂ. ಮಧ್ಯೆ ಏಕಃ ಅಪಿ ವರ್ಣಃ ಭಿನ್ನಃ ಏತತ್ ಸ್ಮರ್ತವ್ಯಂ, ಏತೇಭ್ಯಃ ಭಿನ್ನಃ ಅಸ್ತಿ ಚೇತ್ ಣತ್ವಂ ನ ಭವತಿ. ಇದಾನಿಂ ಶಾನಚ್ ವಿಷಯ ಕಿಮರ್ಥಂ ಏತತ್ ಸರ್ವಂ ಉಚ್ಯತೆ ಇತ್ಯುಕ್ತೆ, ಶಾನಚ್ ಪ್ರತ್ಯಯೇ ನಕಾರಃ ಅಸ್ತಿ ಆನ ಅಥವಾ ಮಾನ ಇತಿ, ತಸ್ಯ ಣತ್ವಂ ಕದಾಚಿತ್ ಭವತಿ ಯಥಾ ಕುರ್ವಾಣಃ ಇತ್ಯಸ್ತಿ. ಕ ಉ ಇರ್ ವಾ ನ, ಸೊ ರೇಫಃ ನಕಾರಃ ಮಧ್ಯೆ ವ ಅಸ್ತಿ, ಹಯವರ ಆಕಾರಃ ಸ್ವರಃ, ಅತಃ ಕುರ್ವಾಣಃ ಇತ್ಯತ್ರ ಣತ್ವಂ ಭವತಿ. ಮ್ರಿಯಮಾಣಃ, ಅತ್ರ ಪಶ್ಯಂತು ಬಹೂನಿ ಅಕ್ಷರಾಣಿ ಸಂತಿ ಮಧ್ಯೆ, ರೇಫಃ ಅತ್ರ ಅಸ್ತಿ ನಕಾರಃ ಅಸ್ತಿ ಮಧ್ಯೆ ಇ ಯ ಅ ಮ ಆ, ಇ ಅ ಆ ಏತೇ ಸ್ವರಾಃ, ಯಕಾರಃ ಹಯವರ ತತ್ರ ಅಸ್ತಿ, ಮಕಾರಃ ಪವರ್ಗಸ್ಯ, ಅತಃ ಅತ್ರಾಪಿ ಣತ್ವಂ ಭವತಿ. ವೀಕ್ಷಮಾಣಃ, ಸೊ ಕ್ಷಕಾರಃ ನಕಾರಃ ಮಧ್ಯೆ ಅ ಮ ಆ, ಅತಃ ಅತ್ರಾಪಿ ಣತ್ವಂ ಭವತಿ. ಕಿಂತು ಕ್ರೀಡಾನಃ ಇತ್ಯಸ್ತಿ, ಅತ್ರಾಪಿ ರೇಫಃ ನಕಾರಃ ಮಧ್ಯೆ ಈ ಣ ಆ ಅಸ್ತಿ, ಅತ್ರ ಣಕಾರಃ ಸ್ವರಃ ನ ಹಯವರ ನ ಕವರ್ಗ ಪವರ್ಗೌ ನ, ಅತಃ ಕ್ರೀಡಾನಃ ಇತ್ಯತ್ರ ಅಸ್ಯ ನಕಾರಸ್ಯ ಣತ್ವಂ ನ ಭವತಿ. ಅಸ್ಯ ತು ಪೂರ್ವಮೇವ ಕೃತಮಸ್ತಿ, ವಸ್ತುತಃ ಅಯಂ ನಕಾರಃ ಅಪಿ ನಕಾರಾದ್ದೇವ ನಿಷ್ಪನ್ನಃ. ಕಿಂತು ಇದಾನೀಂ ಶಾನಚ್ ಪ್ರತ್ಯಯಸ್ಯ ಯಃ ನಕಾರಃ ಆನ ಇತಿ, ಸೊ ತಸ್ಯ ಆಣ ಇತಿ ನ ಭವತಿ. ಕಿಮರ್ಥಂ ನ ಭವತಿ, ಮಧ್ಯೆ ಅನ್ಯಃ ಏಕಃ ವರ್ಣಃ ಅಸ್ತಿ. ಏವಂ ಗೃಹ್ಣಾನಃ, ಯತ್ರ ರೇಫಃ ಇತ್ಯುಚ್ಯತೆ ತತ್ ಕಾರ್ಯಂ ಋಕಾರಸ್ಯಾಪಿ ಭವತಿ, ಯತೋಹಿ ಋಕಾರೇ ಅಪಿ ರೇಫಸ್ಯ ಅಂಶಃ ಅಸ್ತಿ. ಕಿಂತು ಅತ್ರಾಪಿ ಋ ಅಸ್ತಿ ನ ಅಸ್ತಿ, ಮಧ್ಯೆ ಣಕಾರಃ ಹಕಾರಃ ಸಮ್ಯಕ್, ಹಯವರ ಆಕಾರಃ ಸ್ವರಃ, ಕಿಂತು ಣಕಾರಃ ಭಿನ್ನಃ, ಅತಃ ಅತ್ರಾಪಿ ಣತ್ವಂ ನ ಭವತಿ. ಕ್ರೀಣಾನಃ ಗೃಹ್ಣಾನಃ, सो कुर्वाणः म्रियमाणः वीक्षमाणः इत्यादिषु भवति. सो एतद् नट्वं पृथक् कार्यं न, यत्र यत्र नकारः अस्ति तत्र सर्वत्र अस्य प्रसङ्गः भवति. सो नकारः भवति वा न वा इति ज्ञातुम् अयं नियमः उपयोक्तुं शक्यते. पुनः वदामि, अपवादाः सन्ति अत्र नत्वविषये, इतोपि ज्ञातव्यम् अस्ति. एतद् दिस् इस् नाट् कम्प्लीट् पिक्चर्, जस्ट् टु स्टार्ट् औट्. फोर् 90% आफ् द केसेस् दीस् टु रूल्स् विल् वर्क्. सो देर् आर् सम् केसेस् वेर् दे मे नाट् वर्क्, देर् यू विल् हाव् टु नो मोर् किमर्थं भवति अथवा न भवति इति ज्ञातव्यं भवति. केऽपि प्रश्नाः सन्ति वा? एकः प्रश्नः आसीत् शेरते इति कथम् इति. सः तद्विशिष्टं रूपं शी धातुः, शेते शयाते, वस्तुतः तत्र शय इत्येव भवति, अतः शय आन शयान इति भवति. शेरते इत्यत्र तु रेफः विशिष्टं कार्यं, तस्य विशिष्टं सूत्रमस्ति. सो इट्स् अ बिट् इरेग्युलर्, अतः तत्र साक्षात् आन इति योजनेन रूपं न भवति, किन्तु अन्यत्र न भवति. Ramanath Mahodaya, what do you want to share? What me to share?
You mentioned about Kupu something, right? That sutra or whatever, that rule for Natvam?
No, the rule as in that to remember, if you know the Paninian terminology, you can, then it is easier to remember the intervening letters.
Yeah. So the ku is for the kavarga.
Right. So there is at is a pratyahara for ach plus hayavarat. So all swaras and hayavara are covered there. And you have ku is kavarga, pu is pavarga. There is ang, which is a upasarga, which is not normally found. And num is a term for anuswara. So if you just remember that word, at kup vang num, that covers those things. But of course, you'll have to understand what it is, so it will just.
Okay.
Yeah. Astu. Dao. Okay. Prashna asti va? Dao Mohane. Okay, any other questions? ओके सो इदानीम् अग्रे गच्छामः. शानच् प्रत्ययान्तं रूपम् आदौ बहुवचनरूपं तथैव शानच् प्रत्ययान्तं रूपं वक्तव्यं. ये वक्तुम् इच्छन्ति ते हस्तमुन्नयन्ति. गायत्री विश्वनाथन्
याचते याचमानः.
बहुवचनं
याचमानाः
न न याचते इत्यस्य बहुवचनं
याचते याचते ते याचमानः याचमानौ याचमानम्
याचते याचेते याचन्ते. ओके सो बिकास् इट् इस् अन्ते मान इति भवति याचमानः.
जुम्बते
जृम्भते जृम्भते मीन्स् टु यान्
जुम्बन्ते जुम्बमानः
जृम्भमानः जृम्भमाणः कुतः दिस् शुड् बि जृम्भमाणः. ऐ थिङ्क् ऐ मेड् अ मिस्टेक् बिकास् देर् इस् ऋ अस्ति म भ म आल् आफ् देम् आर् पवर्ग लेटर्स् so this should actually be jrumbhamanah jrumbhamanah iti bhavet anantaram aham parivartaya because everything between this thing is a pavarga letter or a swara. okay so next avinash vaidya
chunute chunete chununte
चिन्वते चिनुते चिन्वाते चिन्वते
चिन्वते देन इट विल बी चिनुआन
चिन्वान चिन्वान
चिन्वान
चिन्वान
चिन्वान दयते दयते दयते
दयन्ते दयन्ते
दयन्ते
सम्यक् दयमानः दयन्ते दयमानः सो जृम्भते इत्यस्य अर्थः यानिङ्ग् टु यान् वेन् यु आर् स्लीपि दयते इति टु टु फ्लै इत्यर्थः. रामनाथ
भुङ्क्ते भुञ्ज भुञ्ज भुञ्जानः
भुङ्क्ते भुञ्जाते भुञ्जते सो अते अस्ति अतः आनः भुञ्जानः.
कुरुते कुर्वाणः
कुर्वाणः कुरुते कुर्वाते कुर्वते कुर्वाणः.
शङ्क्ते शङ्गेते शङ्गन्ते वन्दते वन्दते शङ्गन्ते शङ्गमानः
शङ्कन्ते शङ्कमानः शङ्कमानः टु डौट् समथिङ्ग्.
तनुते तनुते तनुते
तनुते तन्वाते
तन्वते
तन्वते
तन्वते तन्वानः
तन्वानः सम्यक् तनुते तन्वाते तन्वते तन्वानः तनुते इस् टु स्प्रेड्. महालक्ष्मी
नमस्ते. वर्धते वर्धन्ते वर्धमानः
वर्धमानः सोणत्वं भवति वा
नो नो
धकार मध्ये धकारः अस्ति वर्धमानः धकारः अस्ति विच डज नॉट बिलोंग टू देम अतः णत्वं न भवति
विक्रीणाति
विक्रीणीते
विक्रीणीते विक्रीणाते
विक्रीणाते
विक्रीणाते विक्रीणाः
विक्रीणानः 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 सम्यक् सो स्पेल्लिङ्ग् इत्यर्थः विक्रीणानः सो कुर्वाणः तन्वानः विक्रीणानः कुत्रणत्वं भवेत् विक्रीणानः इत्यत्रापि न भवति यतोहि मध्ये णकारः अस्ति द स्टाण्डर्ड् रूल् इस् इफ् देर् इस् आलरेडि वन् न यु विल् नाट् हाव् द सेकेण्ड् नकार कदापि न भवति सो एकमेव एक एव णकारः भवति सो अत्रैव णकारः अस्ति मध्ये सः स्वरः हयवर कवर्ग पवर्गेषु न अन्तर्भवति अतः अस्य णत्वं न भवति अग्रे गच्छामः शानच् प्रत्ययान्तस्य भिन्नलिङ्गेषु रूपाणि बहु सरलं वस्तुतः शानच् प्रत्यये एकं रूपं ज्ञायते चेत् सर्वं बहु सरलमेव अकारान्तः पुल्लिङ्गः वन्दमानः वन्दमानौ वन्दमानाः रामः रामौ रामाः स्त्रीलिङ्गे आकारान्तः भवति वन्दमाना वन्दमाने वन्दमानाः इति रमा रमे रमाः इतिवत् नपुंसकलिङ्गे पुनः अकारान्तं भवति वन्दमानं वन्दमाने वन्दमानानि सो वन्दमानः वन्दमाना वन्दमानम् इति त्रिषु लिङ्गेषु रूपाणि प्रथमाविभक्तौ तु एवं भवन्ति सो समानरीत्या विशेषणत्वेन उपयोगः क्रियते विशेष्यस्य लिङ्गं वचनं विभक्तिं च आश्रित्य अस्यापि लिङ्गविभक्तिवचनानि उपयोक्तव्यानि भवन्ति अत्र शानच् प्रत्ययान्तेन रिक्तं स्थलं पूरणीयं सो कीदृशः सः वरं प्राप्तवान् सो वन्दते इति दत्तमस्ति तस्य समुचितलिङ्गे रूपं प्रयोक्तव्यम् स्वामिनाथन्
सः वरं प्राप्तवान्
तत्र किं वा यस् यस् ऐ केन् हियर् यु वन्दमानः सः वरं प्राप्तवान् सम्यक् सो ही हु वास् गोयिङ्ग् डौन् सः वरं प्राप्तवान् इत्यर्थः वन्दमानः सः वरं प्राप्तवान् आर् सः वन्दमानः वरं प्राप्तवान् समानं द आर्डर् डस् नाट् मेक् एनि डिफरेन्स् सो कष्टानि ब्लाङ्क् सा प्रबुद्धा जाता सो सहते इति अस्ति सहते इस् टु एक्स्पीरियन्स् टु टालरेट्
कन् यु हियर् मी
श्रूयते
कष्टानि सः सहानः सा प्रबुद्धा जाता
सः सहते सहेते सहन्ते
सहमानः सा प्रबुद्धा जाता
सहमा
सहमानः
सा स्त्रीलिङ्गम्
ओ
स्त्रीलिङ्गे किं भवति सहमानः
सहमाना
सम्यक् सो कष्टानि सहमाना सा प्रबुद्धा जाता सो हेविङ्ग् गोन् थ्रू अ लाट् आफ् डिफिकल्टीस् शी बिकेम् मेच्योर् प्रबुद्धा इत्यस्य मेच्योर् इत्यर्थः अत्र सो कष्टानि सहमाना सा प्रबुद्धा जाता सो सा इति स्त्रीलिंगे अतः सहमाना अन्य केपि वक्तुम् इच्छन्ति त्वरते इत्यस्ति विकासः उपनेत्रं विस्मृतवान्
नमस्ते त्वरमाणः विकासः उपनेत्रं विस्मृतवान्
त्वरमाणः विकासः सो हरिङ् त्वरते इस् टु हरि सो त्वरमाणः विकासः सो अत्र मध्ये केवलं मकारः अस्ति र न मध्ये मकारः पवर्गस्य वर्णः अतः णत्वं भवति त्वरमाणः विकासः उपनेत्रं विस्मृतवान् याचन्ते इत्यस्ति भिक्षुक्यः देवालयस्य पुरतः उपविष्टवत्यः कीदृश्यः गायत्री विश्वनाथम्
याचमानः
विच् किं लिङ्गं किं वचनं भिक्षुक्यः भिक्षुक्यः
याचमानाः
सम्यक् याचमानाः भिक्षुक्यः देवालयस्य पुरतः उपविष्टवत्यः सो दोस् हु वर् बेगिङ्ग् सो दे साट् इन् फ्रण्ट् आफ् द टेम्पल् याचमानाः भिक्षुक्यः धेनोः पादाः डेश् दृश्येन्
धेनोः पादाः कम्पमानाः
सम्यक्
कम्पमानाः दृश्यन्ते
कम्पमानाः दृश्यन्ते सो द फीट् आर् और् द लेग्स् आर् ट्रेम्ब्लिङ्ग् कम्पमानाः दृश्यन्ते सो नक्षत्राणि आकाशम् अलङ्कुर्वन्ति कीदृशानि
नक्षत्राणि आकाशाम् अलङ्कुर्वन्ति प्रकाश प्रकाशमानः
नक्षत्राणि
प्रकाशमानानि
सम्यक् प्रकाशमानानि नक्षत्राणि आकाशम् अलङ्कुर्वन्ति सो प्रकाशमानानि नक्षत्राणि शैनिङ्ग् स्टार्स् अडोन् द स्कै प्रकाशमानानि नक्षत्राणि सो आदौ शानजन्तं विचिन्त्य इफ् यु जस्ट् थिङ्क् आफ् द विशेष्य सो नक्षत्राणि प्रकाशमानानि पादाः कम्पमानाः So it is easy because it's a regular word. Tani agrimaha abhyasaha atra vakya dvayam bhavati shanach pratyayantam upayujya yojaniyam. So prathamasya kriyapadasya shanajantam upayujya vakya dvayam yojaniyam. So tadeva lingam vibhaktihi atratu prathama eva lingam vachanam दृष्ट्वा उपयोगः करणीयः
सैनिकाः युध्यमानाः पुत्रान् स्मरन्ति
सैनिकाः युध्यमानाः पुत्रान् स्मरन्ति सम्यक्
अर्चकः स्नानं कृते स्तोत्राणि वदति अर्चकः स्नानं कृते कुर्वन्ते कुर्वमानः स्तोत्राणि वदति
कुरुते कुर्वाते कुर्वते
ओ कुर्वते कुर्मानः कुर्वाणः स्तोत्राणि वन्ति.
सम्यक्. अर्चकः स्नानं कुर्वाणः स्तोत्राणि वदति. स्नानं कुर्वाणः स्तोत्राणि वदति. ज्योति रंगनाथन. You have to unmute yourself. Na shruyate. Can you just check your microphone if it is plugged in properly? Kimapi na shruyate. Yeah. Vadat.
Nidram shete. स्वप्रलापं करोति. मित्रं शेतमानः स्वप्रलापं करोति.
शयान इस् दिस् वन्.
शयमानः स्वप्रलापं करोति.
न न, मित्रं शयान इति शानजन्तं सुनपुंसकलिङ्गम्.
शयमानं
शयानम्. मित्रं शयानं स्वप्नालापं करोति. स्वप्नालापः स्वप्ने आलापः, टाकिंग इन ड्रीम्स्. सो स्लीपिंग फ्रेंड. सो मित्रं शयानं स्वप्नालापं करोति.
अश्विनी वाक्यं प्रयुङ्क्ते चित्राणि दर्शयति. प्रयुङ्गानि चित्राणि.
प्रयुञ्जान.
ओके.
प्रयुञ्जान. सो ता प्रयुञ्जान, ऐ मीन् who does it refer to?
Okay, chitrani, right?
So, no. Uh-huh. Who uses the vakya?
Ashwini vakya. Okay. Okay. Priyunjana, Priyunjana, Ashwini vakya. Priyunjana, Ashwini vakyam chitrani darshayati.
Vakyam Priyunjana, Ashwini chitrani darshayati.
So it's an adjective for Ashwini then, right?
Ashwini. अश्विनी प्रयुङ्क्ते. अतः अश्विनी वाक्यं प्रयुञ्जाना चित्राणि दर्शयति. चित्राणि दर्शयति इति पृथग् वाक्यं, तत्र सम्बन्धः नास्ति.
ओके ओके, थैंक यू.
वाक्यं प्रयुञ्जाना चित्राणि दर्शयति. सिंपलि मीन्स् शी इस् सेयिङ्ग् संथिङ्ग्, शी शोस् द पिक्चर्स् इति अर्थः.
छात्राः सम्यक् अधीयन्ते, उत्तमान् अङ्कान् प्राप्नुवन्ति. छात्राः सम्यक् अधीयन्ते,
अधीयते सारि,
अधीयानः किल, अधीयानाः छात्राः सम्यक्, छात्राः सम्यक् अधियानाः उत्तमान् अङ्कान् प्राप्नुवन्ति.
छात्राः सम्यक् अधियानाः उत्तमान् अङ्कान् प्राप्नुवन्ति. अधीते, अधीयाते, अधीयते इति रूपम्.
ललनाः सुन्दरं भाषमानाः जनान्
भाषमाणाः. श अस्ति, अतः मध्ये मकारः, अतः णत्वं भवति. भाषमाणाः सम्यक्. ललनाः सुन्दरं भाषमाणाः जनान् आकर्षन्ति. भाषन्ते, वदन्ति इत्यर्थः. एवं शानच् प्रत्ययान्तस्य प्रथम विभक्तिरूपान् सर्वेषु लिङ्गेषु ज्ञातवन्तः. ద రెస్ట్ ఇస్ యాక్చువల్లీ వెరీ ఈజీ అన్యత్ విశిష్య కిమపి నాస్తి అకారాంత పుల్లింగ ఆకారాంత స్త్రీలింగ అకారాంత నపుంసకలింగ యథా శత్రు ప్రత్యయస్య భిన్నేషు భిన్నాసు విభక్తిషు ప్రయోగ భవతి తథైవ శానచ్ ప్రత్యయాంతానామపి భిన్నాసు విభక్తిషు ప్రయోగ భవతి తస్య అభ్యాసం శ్వః కుర్మః తావదేవ అస్తి ఇతి చింతయామి కర్మణి శానచః శిక్షాస్తరే నాస్తి కించిత్ తద్విషయ దృష్ట్వా సప్తమి ప్రయోగాన్ జానీమః ఇదానీ కావ్యాంశేషు సుభాషితద్వయం ఏవ అవశిష్యతే సర్వాణి సుభాషితాని దృష్టాని ఐశ్వర్యస్య విభూషణం సుజనత శౌర్యస్య వాక్ సంయమః జ్ఞానస్యోపశమః కులస్య వినయః విత్తస్య పాత్రే వ్యయః అక్రోధస్తపసః క్షమా బలవతాం ధర్మస్య నిర్వ్యాజత సర్వేషామపి సర్వకారణమిదం శీలం పరం భూషణం. సదృశ శ్లోక దృష్ట కరేశ్లాఘ్య త్యాగ శిరసి గురుపాద ప్రణయిత ఇది తత్రాపి అన్వయస్య మహాన్ క్లేశ కోపి నాస్తి కోపి కర్తుమిచ్చతి ఎనీబడి వాంట్స్ టు ట్రై. జ్యోతి శ్రూయతే
పద పదవిచ్ఛేద ఐశ్వర్యస్య విభూషణం సుజనత శౌర్యస్య వాక్సంయమః జ్ఞానస్య జ్ఞానస్య ఉపశమః సంధియస్య
సమ్యక్
వినయః విత్తస్య పాత్రే వ్యయః అక్రోధస్తపః తపసః సంధి అస్తి అక్రోధః తపసః క్షమా బలవతాం ధర్మస్య నిర్వ్యార్జత సర్వేషాం సంధి అస్తి సర్వకారణం ఇదం
సంధి నాస్తి పదం భిన్నం తావదేవ తత్ర వర్ణ వికారః నాస్తి కిల సర్వేషాం అపి
కీలం పరం భూషణం సంధి జ్ఞానస్య ఉపశమః గుణసంధి అక్రోధః అక్రోధస్తపసః అక్రోధః ప్లస్ తపసః విసర్గసంధి వినయః ప్లస్ విత్తస్య వినయో తస్య విసర్గస్తి ఉకారః ఓకే అన్వయ రచన నెక్స్ట్
వాక్య విశ్లేషణం
ఓకే ప్రథమ విభక్తి వ్యయః ఉపశమః వాక్ సంయమః సుజనత నిర్వ్యాజత ప్రథమ విభక్తి
వినయః క్షమా కులస్య వినయః క్షమా అండ్ ఆల్సో సర్వకారణం ఇదం శీలం పరం పూర్ణం దట్ హోల్ థింగ్ ఇస్ ప్రథమ
ఓకే ఓకే సో ద్వితీయ విభక్తి అక్రోధం
నాస్తి ద్వితీయ నాస్తి ఏవ ఎవ్రీథింగ్ ఎల్స్ అక్రోధః ఇస్ ఆల్సో ప్రథమ
ఓ అక్రోధః ఇస్ ఆల్సో ప్రథమ విభక్తి ఓకే
ఎవ్రీథింగ్ ఎల్స్ విభక్తి
అస్తి దట్స్ ఐశ్వరస్య శౌర్యస్య జ్ఞానస్య కులస్య విత్తస్య ధర్మస్య తపసః షష్టి
సర్వేషాం
సర్వేషాం సప్తమి అస్తి వా పాత్రే
పాత్రే ఇది సప్తమి
అవ్యయః అన్
అపి ఇది అవ్యయం
ఓకే ఎవ్రీథింగ్ ఎల్స్ సామాన్యతం సుజనత అథవా సాధుత ఐశ్వర్యస్య సంపత్తి. సో సంపత్యాః సాధుత వీరస్య వాచ వంశీకరణం బుద్ధిమానస్య వాచా వంశీకరణం బుద్ధిమానస్య తృప్తిః వంశస్య సంస్కారః ద్రవిణస్య దానః ధర్మస్య నిచలత చ ఏతేషాం గుణాః శోభయతే. విచ్ మీన్స్ ఐ థింక్ ఫర్ ద పర్సన్ విత్ వెల్త్ సుజనత I mean, should I tell meaning for every word in English or?
No, no, just general, if you've understood it, it's okay. You can go with to the Akanksha, so anyway, we'll understand the word by weird words.
Okay. Tatapi charitrayaha ati mukhyam iti samanyatam. Even though the presence of all these adds a lot of... I mean, they are like ornaments. All these gunas are like ornaments for each of those categories. Still, the presence of character or chilam is the most important of all these ornaments.
Correct.
Anvayaha. సుజనత ఐశ్వర్య వాక్ సంయమ శౌర్య ఉపశమ జ్ఞాన వినయ కులస్ వ్యయ విత్త పాత్రే వ్యయ విత్త అక్రోధ తపస బలవతాం క్షమా ధర్మస్య నిర్వ్యజత విభూషణం శీలం సర్వకారణమిదం పరం భూషణం. సర్వేషామపి శీలం సర్వకారణమిదం పరం భూషణం.
సమ్యక్ భవతి. సో దట్ ఇస్ ద అధ్యాహార అధ్యాహారం భవతి. అలంకారః కః అలంకారః ఐశ్వర్యస్య విభూషణం భవతి అలంకారభూతం భవతి. కిం సుజనత సుజనత సౌజన్యం బీయింగ్ జనరస్ బీయింగ్ గుడ్ నోబిలిటీ. సో కస్య విభూషణం భవతి ఐశ్వర్య సంపత్తే విభూషణం భవతి. సో వాక్సమ్యమ విభూషణం భవతి. వాక్సమ్య వాచాం నియంత్రణం కంట్రోలింగ్ యువర్ స్పీచ్ ఆర్ వర్డ్స్. సో వాక్సమ్యమ వాచాం నియంత్రణం కస్య విభూషణం భవతి
శౌర్యస్య
శౌర్యస్య పరాక్రమస్య. యతోహి యది పరాక్రమః భవతి అస్తు యత్కిమపి వదామః కోపి కిమపి కర్తుం న శక్నోతి ఇతి భవతి. అధికం వదంతి న వక్తవ్యం. సో వాక్సమ్యమః శౌర్యస్య విభూషణం భవతి. సో ఉపశమః ఉపశమః శాంతిః విభూషణం భవతి. కస్య జ్ఞానస్య. వినయః వినీతత హ్యుమిలిటీ. సో కస్య విభూషణం భవతి కులస్య ఉత్తమ వంశస్య. సామాన్యతః సంస్కృత వాంగ్మయే కులం ఇత్యుక్తే ఉత్తమ వంశః ఇత్యేవ అర్థః. సో ఉత్తమ వంశే జాతస్య వినయః విభూషణం భవతి. సో పాత్రే వ్యయః వ్యయః స్పెండ్
విత్తస్య స్పెండ్.
కస్మిన్ వ్యయః పాత్రే పాత్రే యః అర్హః తస్మిన్ అర్హేషు వ్యయీకరణం. సో స్పెండింగ్ ఇన్ డిజర్వ్డ్ ఫార్ ద డిజర్వ్డ్ ఫార్ డిజర్వ్డ్ పీపుల్ ఆర్ ఫార్ డిజర్వింగ్ కాసెస్. సో పాత్రే వ్యయః సత్పాత్రేషు దానం ధనస్య ఆభూషణం అలంకారభూతం భవతి. సో అక్రోధః నామ కోపరాహిత్యం కోపస్య అభావః. కస్య విభూషణం భవతి
తపసః
తపసః. సో తపశ్చర్యాయాః విభూషణం భవతి అక్రోధః. క్షమా క్షమా సహనా పేషెన్స్ కేశాం భవతి
బలవతాం
బలవతాం ఏ అత్యంతం బలిష్ఠాః తేషాం సహన అలంకారః భవతి నిర్వ్యాజత నిర్వ్యాజత నామ కిం
నిశ్చలత నో షో నో షో ఆఫ్ ఆర్ ప్రిటెండ్
ఎగ్జాక్ట్లీ వ్యాజ ఇస్ సమ్ ఎక్స్క్యూజ్ బీయింగ్ సంథింగ్ డిఫరెంట్ క్రికెట్ సో నిర్వ్యాజ ఇస్ స్ట్రేట్ అండ్ సింపుల్ విత్ నో క్రికెడ్నెస్ నో నథింగ్ విచ్ ఇస్ అదర్ దెన్ వాట్ ఇస్ సీన్ సో దర్ ఇస్ అ సుభాషిత మనస్యేకం వచస్యేకం కర్మణ్యేకం మహాత్మనాం సో మహాత్మానః తేషాం మనసి యదస్తి తదేవ వదంతి మనసి ఏకం వచసి ఏకం కర్మణి ఏకం తదేవ కుర్వంతి యత్ చింతయంతి తదేవ వదంతి యద్ వదంతి తదేవ కుర్వంతి తత్ నిర్వ్యాజత అన్యే కిం కుర్వంతి మనస్యన్యత్ వచస్యన్యత్ కర్మణ్యన్యత్ దట్ ఇస్ నార్మల్ థింక్ సంథింగ్ యు సే సంథింగ్ అండ్ దెన్ యు డు సంథింగ్ ఎల్స్ సో దట్ ఇస్ డిఫరెంట్ సో నిర్వ్యాజత నిష్కాపట్యం సారల్యం ధర్మస్య అలంకారః భవతి సర్వేషామపి సర్వకారణం ఏతేషాం సర్వేషామపి గుణానాం సర్వేషామపి విషయాణాం కారణభూతం భవతి కిం శీలం సచ్చరిత్రం సో ఏతద్ గుడ్ కాండక్ట్ ఆర్ గుడ్ క్యారెక్టర్ దట్ ఇస్ ద పరం భూషణం అత్యుత్తమం అత్యుత్తమ అలంకారః శీలమేవ శీలం పరం
భూషణం
వ్యాకరణాంశాః తత్రాపి విశిష్య కిమపి నాస్తి
యా ఇదు తపసః
తపసః ఇస్ ఓన్లీ ఆడ్ మ్యాన్
సో తపః బలవతాం బలవతాం ఇస్ అగైన్ బలవత్ శబ్దః
సో తపసః ఇతి సకారాంతః నపుంసకలింగః శబ్దః షష్ఠీ ఏకవచనం బలవతాం ఇతి బలవత్ శబ్దస్య సకారాంతః పుల్లింగః
పుల్లింగః షష్ఠీ బహువచనం బహువచనం
ఆం బలవతాం బలవతః బలవతోః బలవతాం ఏ బలిష్ఠాః తేషాం అన్యత్ర సర్వత్ర ఏకవచనమస్తి తత్ర బహువచనమస్తి
పాత్రే సప్తమీ
సప్తమీ పాత్రం ఇది అకారాంతః నపుంసకలింగః తస్య సప్తమీ విభక్తి ఆల్ ద దేర్ ఇస్ ఐ థింక్ వెరీ ఈజీ ధన్యవాదాః సమ్యక్ ఉత్తమః ప్రయత్నః పునః పునః కరణేన గెట్ మోర్ అండ్ మోర్ ఇట్ బికమ్స్ ఈజియర్ అండ్ బెటర్ డోంట్ వరీ నెక్స్ట్ వినయామిన్యౌ సాయం ప్రాతః శిశిరవసంతౌ పునరాయాసః కాలః క్రీడతి గచ్చత్యాయుః తదపి న ముంచత్యాశావాయుః ప్రసిద్ధస్య భజగోవిందం అథవా చర్పట పంజరికా ఇది స్తోత్రస్య నామ తత్ర ఇదం అయం శ్లోక అస్తి కోపి వక్తుమిచ్చతి
పదచ్ఛేదః దిన నామిన్యో సాయం ప్రాతః శిశిర వసంతౌ పునః ఆయాతః కాలః క్రీడతి గచ్చతి ఆయుః తత్ అపి న ముంచతి ఆశావాయుః సంధిః పునర్ ఆయాతః విసర్గసంధిరేపః గచ్చతి ఆయుః ముంచతి ఆశావాయుః ఎవ్రీథింగ్ లణ్ సంధి తత్ యశ్వ సంధి సాయం ప్రాతః అనుస్వార సంధి వాక్య విశ్లేషణం క్రియాపదం క్రీడతి గచ్చతి ముంచతి ప్రథమా విభక్తి
ఆయాతః ఆయాతః ఇత్యపి క్రియాపదం ఆయాతి ఆయాతః యాతి యాతః యాంతి
ఓకే ప్రథమా విభక్తి వినయామిన్యో శిశిర వసంతౌ కాలః ఆయుః తత్ ఆశావాయుః అవ్యయం सायं प्रातः पुनः अपि न आकाङ्क्षक्रमेण अन्वयः क्रियापदम् आयातः कः आयातः दिनः
आयातः द्विवचनम्
या बट् ऐ हव् रिटन् सेपरेट्ली कः आयातः दिनः अहन् पुनः कः आयातः यामिनी
सुधन्यल् टु से आयाति बिकास् आयातः इति द्विवचनम् आयाति आयातः आगच्छतः इत्यर्थः सो कौ आगच्छतः अथवा कः आगच्छति
ओके देन् आल् मै सेण्टेन्स् पुनः कः आयाति सायं पुनः कः आयाति प्रातः शिशिरः वसन्तौ पुनः कः आयातः शिशिरवसन्तौ क्रियापदं क्रीडति कः क्रीडति कालः क्रियापदं गच्छति कः गच्छति आयुः क्रियापदं न मुञ्चति कः न मुञ्चति आशावायुः अन्वयः दिनयामिन्यौ आयातः सायं प्रातः आयातः शिशिरवसन्तौ पुनः आयातः कालः क्रीडति गच्छति आयुः तत् अपि आशावायुः न मुञ्चति तात्पर्यः अहर्निशं चक्रनियमेन जातः एवमेव ऋतवः अपि जातः ईदृशं कालः प्रकृत्या विलासं करोति तदा जीवितकालमपि चलति तदापि इच्छारूपी वायोः विमोचनं नास्ति
सम्यक्
ओके व्याकरण अंशाः दिनयामिन्यौ शिशिरवसन्तौ दिनयामिन्यौ पुल्लिङ्गम् अकारान्त पुल्लिङ्गम्
दिनयामिनी यामिनी स्त्रीलिङ्गम् सो दिनयामिन्यौ इति ईकारान्त स्त्रीलिङ्ग प्रथमाविभक्ति द्विवचनं नद्यौ नदी नद्यौ यामिनी यामिन्यौ
सप्तमी विभक्ति एकवचनम्
प्रथमाविभक्ति द्विवचनं दिनश्च यामिनी च दिनयामिन्यौ सो दिनं रात्रिः च यथा रामलक्ष्मणौ एवं दिनयामिन्यौ
then you write स्त्रीलिङ्गम् so then how it is au
नद्यौ नदी नद्यौ नद्यः
सायं प्रार्थना अव्ययं शिशिरवसन्तौ अकारान्त नपुंसकलिङ्गं द्विवचन पुल्लिङ्गं
वसन्तः
ओके पुनः अव्ययम् आयातः या धातुः आ उपसर्गः परस्मैपदी लट् लकार प्रथमपुरुष
द्विवचन हरिः ओम्
द्विवचनं
देर् वास् अ ब्रेक् इन् बिट्वीन् वदतु इदानीं श्रूयते हरिः ओम्
इत्तप्रत्ययम्
सारि वि लास्ट् इट् फार् अ वैल् पुनः वदतु
कालः
वदतु वदतु कालः ऐ थिङ्क् देर् इस् अ कनेक्षन् प्राब्लम् वि कान्ट् हियर् यू वेल् न श्रूयते हरिः ओम् Can you hear?
Homsakalingaha.
Oh, sorry, there was a break in between. From Kalaha, we didn't hear.
Pullinga. Kreedati, Kreed Dhatu. Naipadhi, Rat, Pratama Purusha.
So the problems of technology anyway So I'll complete that. We didn't hear it fully, but gachati latlakaraha prathama purushaha ekavachanam. Ayuhu ayus sakarantaha napumsakalingaha prathama vibhaktihi ekavachanam. Munchati munchadhatuhu latlakaraha prathama purushaha ekavachanam. Asha vayuhu. So ukarantaha pullingaha prathama vibhaktihi ekavachanam. So saralaha shlokaha arthaha api saralaha. So kalaha kridati katham dina yaminyau dinam yamini ityukte ratrihi. So divasaha ratrihi iti punah punaha agachati sayankalaha pratahkalaha shishiraha vasantaha. So representative ritus. So vasantaha spring, shishiraha winter. So sarve ritavaha punah punaha ritu parivartanam bhavati notanam varsham ityadi bhavati evam kalaha kridati ayuh gachati tathapi asha avayuhu na munchati asha rupaha vayuhu asman na tyajati. So kiyadva vardhakyam bhavatu tathapi asha tu bhavatyeva manushyasya ityarthaha. So any questions? So anena subhashitani samaptani shiksha pathyeshu yani dattani subhashitani tani adhitani. So atra vastutaha mahalakshmi bhaginyai mama dhanyavadaha vaktavyaha. So she is one who has prepared the complete the whole padacheda vakya vishleshana anvaya vyakaranamsha for all the shlokas, the Bhagavad Gita and the the subhashikas. So she has whatever answers you see in the website, they are all from her. So she sends me this document and I used to correct it and put it. So minor corrections, but it has been a great help. So dhanyavadaha Mahalakshmi Bhagini sarveshamapi bahu upakvara yasyaditi sintayam. So just one moment, please. Okay, so we still have 20 minutes. So we will do one portion of the Kavya Katha. Gata Saptahe Kirata Arjuniyasya Kavya Katha Arabdha. Kirata Arjuniyam Mahakavina Bharavina Virachitam Kavyam. So Yatra Arjunaha Shivam Uddishya Tapaha Kratva Pashupatastram Kartum Prayatate Kiratavesharinaha Shivasya Arjunasya Yuddham Pravartate. Atayeva Kirata Arjuniyam iti Granthasya Nama Tatra Prathamam Bhagadvayam Asmavihi Adhitam. So Prathama Bhage Yudhishthiraha Ekam Charam Du Kashchit Charaha Tam Preshayati Hastinapuram Prati Preshayati Pandavaha Vanavase Santi Duryodhanaha Katham Rajyabharam Karoti iti Jnatum Yudhishthiraha ekam charam preshayati saha charaha pratyagatya duryodhanaha bahu samyak rajyabharam karoti sarvan santo bahu samyak palayati uttamaha rajyabharah asti iti varnayati tachrutva pandavaha kinchit vyakulaha tada draupadi yudhishthiram upadishati shanti margaha muninam bhavati natu rajyam avadhi nirikshanam na kartavyam iti bhimaha api tasyaha vachanam anumodate kintu yudhishthiraha vadati mama margaha tu ayameva iti tavati vyasaha agachyati vyasaha agatya suchanam dadati duryodhanaha yuddhartham ayudhanam sangraham karoti bhavantah api kurvantu arjunaha tapaha krutva astram praapnotu aham ekam mantram paathayami ityuktva mantram paathayati margadarshanartham ekam yaksham api preshayati. So tavat paryantam gata varshe gata varge drishtavantah arjunah gatva idani tapah kurvan asti vane indrakilam iti parvatah. So tasya parvatasya samipe saha taponirakah asti. So
अयं भागः तपोभङ्गप्रयत्नः अर्जुनस्य तपसः भङ्गार्थं प्रयत्नः क्रियते. ये पठितुम् इच्छन्ति हस्तमुन्नयन्तु.
Yeah, you can hear me, right?
Sure.
Sarakala sannihitaha bhumir dhanya samrudhya purna abhavat nadinam sarovarnanscha jalam nirmalam abhavat gaganatale achi samuho madhuranganam akaro
madhuranganam
मधुरङ्गानम् अकरोत् सुगन्धो मारुतः मन्दं मन्दं प्रवाहत् दिशाः प्रसन्नाः. मीनिङ्ग् शलत् शरत्कालं दट् इस् दे ऐ मीन् दट् इस् ऐ थिङ्क् दट् इस् वेर् दि लैट्स् आर् ब्यूटिफुल्. That is coming closer.
Sharad Ritu is the autumn season after the rainy season.
Okay.
So Sharad Kalaha Sannihitaha. So the autumn was approaching.
Yeah, autumn was coming closer. Bhumir Dhanya Samudhya. The earth is full of paddy fields. I mean, the paddy fields are coming for fruition.
Yes.
Urna Abhavat. Nadinam Sarovaranam Jalam. There is plenty of water in the rivers and the Sarovara. I don't know the English word for Sarovara, but Sarovara is
lakes.
Yeah, right. rivers and lakes are full of water. Nirmala Janam. Jalam Nirmalam Abhavat. It's a pure water. Gaganatale. In the skies, Achitamoho Madhuraganam Akarot. The birds are singing nicely. And Sugandho Marutaha Mandam Mandam Pravahat. The air is moving slowly, slowly with a lot of fragrance. Disah Prasannaha. All the dishas are prasanna. They're all
pleasant. All the directions are very pleasant.
Prasanna, pleasant, are okay.
Pleasant. Happy, prasanna. It is happy atyartha. Atvatu pleasant atyartha. So, varnana vastutaha moola kavya kiratarjuniye. Bahushu sargeshu varnanameva asti. Mahakavyasya lakshanameva tat. तत्र बहुत्र वर्णनं बहु सम्यक् भवति. टु रीड् इट् इन् द ओरिजिनल् इट् इस् वेरि वेरि ब्यूटिफुल्. ऐ मीन् टु रादर् देन् रीडिङ्ग् इट् इन् प्लेन् सेण्टेन्सस्. अत्र तु सामान्यतः दीयते, किन्तु यत्र कवयः उपमादिकम् उपयुज्य वर्णयन्ति तस्य पठनं बहु सम्यक् भवति. तत्र शरत्कालस्य वर्णनं क्रियते. शरत्कालः वर्षर्तोः अनन्तरं भवति. वसन्तः, ग्रीष्मः, वर्षाः, शरत्, हेमन्तः, शिशिरः इति ऋतूनां क्रमः. सो वृष्टिकाले सम्यक् वृष्टिः भवति. वृष्टेः अनन्तरं द स्कैस् क्लियर्. सो आकाशे मेघाः अधिकाः न भवन्ति. सर्वत्र वृष्टिकारणेन नूतन सस्यानाम् उत्पत्तिः भवति. तदेव वर्णयति. शरत्कालः सन्निहितः, भूमिः धन्यसमृद्ध्या पूर्णा अभवत्. सर्वत्र सस्यसमृद्धिः दृश्यते. नदीनां सरोवराणां च जलं निर्मलम् अभवत्. वृष्टिकाले सर्वत्र प्रवाहः एण्ड् इट् इस् आल् मड्डी वाटर् बिकास् आफ् यु नो द है इन्फ्लो आफ् वाटर्. द रिवर्स् एण्ड् लेक्स् टेन् टु बी मड्डी ड्यूरिङ्ग् द रेनी सीज़न्. किन्तु शरत्काले वृष्टेः अनन्तरं सर्वमपि इट् सेटल्स् डौन्. आल् द मड् सेटल्स् डौन् एण्ड् वाटर् बिकम्स् क्लीन् एण्ड् क्लियर्. सो नदीनां सरोवराणां च जलं निर्मलम् अभवत्. गगनतले पक्षिसमूहः मधुरं गानम् अकरोत्. सो दर् इस् परसवर्ण हियर्. सो
सो मधुरं गानम् अनुस्वारः परसवर्णः मधुरं गानम् अकरोत् सुगन्धः मारुतः फ्राग्रेंट ब्रीज मंदम मंदम प्रावहत इट वाफ्टेड स्लोली दिशाः प्रसन्नाः सो अर्जुनः इदानीं तत्र आगच्छति तपश्चर्यार्थम्
अर्जुनः इन्द्रकीलपर्वतं प्राप्तः यक्षः उक्तवान् अर्जुन शस्त्रं धृत्वा तपस्यां कुरु तपसो मध्ये विघ्ना भवन्तेव तथापि तदनन्तरं कल्याणं भविष्यति अथ इन्द्रिय चापलं परित्यज्य शिवस्तव संतापं परिहरतु इंद्रो लोकपालश्च तपसिद्धये सहाया भवन्तु एवं आशीर्वादं कृत्वा यक्ष स्व संस्थानं गतः अर्जुन केम टू इंद्रकील पर्वत there was one yaksha he said to arjuna for getting the weapon you have to do some tapas
no shastram dhritva he said your weapons only as in holding your
you pronounce holding your weapon tapaso madhye vighna bhavante while doing this tapas you may encounter some difficulties tathapi tadanantaram kalyanam bhavati but after that you will get good thing kalyanam means something better atha indriya chapalam paritajya therefore don't waver shivastava santapam pariharatu shivas kopa or what is it anger
no shivaha tava santapam pariharatu so may shiva remove your difficulty or problem
difficulty problem yes indro loka pralashch palashch indra loka palashch tapasiddhaye sahaya bhavantu I did not get meaning of this indro loka palashch
yes the king loka palaha palakas the rulers of the eight directions So, sahaya bhavantu may they help
you tapasiddhaye
to achieve objective
okay evam ashirvadam krutva yaksha swasthanam gatha by giving this ashisha
blessing
yaksha went to his place
correct samyak so sah yakshah vyasah yaksham ekam preshayati arjunena sah सो सः यक्षेण सह अर्जुनः इन्द्रकीलपर्वतं प्राप्नोति यक्षः उपदेशं कृत्वा गच्छति सो मध्ये विघ्नाः भवन्ति अतः शस्त्रं धृत्वा तपस्यां कुरु सो इवन् ड्यूरिङ्ग् प्रेगनेन्स् डोण्ट् गिव् अप् युवर् वेपन्स् टु प्रोटेक्ट् युवर् सेल्फ् ओके सो द रेस्ट् इस् आल् फैन् एनी क्वश्चन् परित्यज मुञ्च गिव् अप् किम् इन्द्रिय चापलम् इन्द्रियाणां चापलं चञ्चलत्वं सो वेवरिङ्ग् आफ् द सेन्सस् गिव् अप् द वेवरिङ्ग् आफ् सेन्सस् इत्यर्थः
अर्जुनः इन्द्रकीलपर्वते अवसत् पर्वतसमीपे गङ्गानदी प्रवहति सः प्रदेशो अतीव रमणीय आसीत् तथा वृक्षा भ्रमरैव आवृताः पक्षिणः मधुरनादेन पूजन्ति प्रायस्ते अर्जुनाय जयघोषं कुर्वन्तीव तत्र कलहंसाः गङ्गाजले तरन्ति तदपि दृश्यं बहु मनोहरम् एवं रम्यं दृश्यम् अर्जुनः दृष्टवान् अर्जुनः इन्द्रकीलपर्वते अवसत् अर्जुन स्टेज् इन् इन्द्रकीलपर्वत पर्वतसमीपे गङ्गानदी प्रवहति बै दि सैड् आफ् दि मौण्टन् गङ्गा रिवर् इस् फ्लोयिङ्ग् सः प्रदेशः अतीव रमणीय आसीत् दट् प्लेस् वास् वेरि ब्यूटिफुल् तथा वृक्षाः भ्रमरैव आवृताः देर् द ट्रीस् वर् सरौण्डेड् बै द बीस् पक्षिणः मधुरनादेन पूजन्ति all the birds were cooing with beautiful sound with the voice prayaste arjunaya jayagosham kurvanti it looked like they were saying jayagosha for arjuna for the sake of arjuna tatra kalaham taha ganga jale taranti there on the river ganga river the hamsa birds the swans were swimming तदपि दृश्यं बहु मनोहरं लुकिङ्ग् अट् दट् इट् वास् वेरि ब्यूटिफुल् एवं रम्यं दृश्यम् अर्जुनः दृष्टवान् सो अर्जुन सा सच् ब्यूटिफुल् सैट्
सम्यक् सरलमस्ति पुनः अत्रापि वर्णनमेव वस्तुतः किरातार्जुनीये तत्र तृतीयसर्गात् यावत् अर्जुनः गच्छति तथा आरभ्य प्रायः षड् वा सप्तसर्गाः वा वर्णनमेव बहु अस्ति सम्यक् वर्णनं करोति सः मध्ये अनन्तरम् अन्ते एव पुनः कथा बिकास् द प्लाट् इस् वेरि स्माल् बिकास् अर्जुनः तपः करोति अनन्तरम् अन्ते शिवः आगच्छति युद्धं भवति इत्येव मध्ये वर्णनाधिक्यम् अस्ति काव्ये
पर्वतस्य परिसरः प्रशान्तः अर्जुनः तत्र तपस्याम् आरब्धवान् सर्वाणि इन्द्रियाणि स्वाधीनानि कृतवान् कठिनं तप एव आचरितवान् तथापि तपो अनुष्ठानेन तेन खेदो न अनुभूतः तपसः प्रभावेण तस्य शरीरम् उज्ज्वलम् अभवत् शरीरकान्तिः सर्वत्र प्रसूता Prasrita. So they say that the surroundings of the mountain Indrakila Parvat was peaceful, and Arjuna started his tapasya over there. And swadhinani meaning I didn't get, ma'am.
Under control.
Yeah. So he kept all his indriyas under control, and he followed a kathina tapa, a very difficult penance. Tapo, so tathapi, that time, he did not find any obstacles or any difficulties in following the tapas. Okay. And because of the...
Even though it was a very severe penance, he didn't find it difficult to do that penance.
Yes, ma'am. Tapasah prabhavena tasya shariram ujjvalam abhavat. His body started glowing because of the effect of the tapas. शरीर कांति सर्वत्र प्रसृता इट स्प्रेड एवरीवेयर बट व्हाट इज शरीर कांति आई डिड नॉट अंडरस्टैंड
शरीर कांति प्रभा ऑफ द बॉडी द शीन ऑफ हिज बॉडी बिकेम वेरी ब्राइट एंड शाइनिंग सो इट स्प्रेड एवरीवेयर
धन्यवाद
अन्य केपि Fine. If there is nobody, maybe you can. And they gave you particular chanti.
Arjunasya tapah prabhavayutam jatam. Tatra vane krur mriga api hinstra karyam परित्यजन् वृक्षाः पल्लवै स्मृद्धाः अभवन् अभवन् आकाशः अपि निर्मलः अभवत् भूतलम् अपि
धूलिकणरहितं जातम्
सो अर्जुनस्य तपः प्रभावयुतं जातं सो हिज अर्जुन्स द tapa of arjun was making a prabhav on the atmosphere is that correct that's one
very
perspective yeah so prabhav is effect so when he was doing the tapa it was making a prabhav it was making an effect right. So in that tatravan krur marga api so in that forest a very krur mriga very krur deer krur what's the English word for krur
the wild
cruel animal. Yeah so cruel animal he was doing some hinsa there
no they left karyam. Their hinsa karyam parityajan so they gave up their cruel act because of
he gave up his cruel acts okay so in that forest the mriga the deer which was doing a very cruel things he gave up that because that was the prabhav of arjun satapah vrikshah pallavai pallavai smridhah abhavan so in the on the trees all the what's it called pallavs
sprouts so trees were filled with fresh sprouts
yes so akashah api nirmal abhavat so the sky became very very clear or good soft bhutalam api so this thing last one I didn't get
So, bhutalam, the land, dhulikana rahitam. Dhulikana is dust particles. So, free from dust particles. So, that is, there was cleanliness and peace and happiness everywhere because of the effect of his penance.
Yeah, dhanyavadah.
So, dhulikana rahitam jatam. Dhulikanaha. So, dust particles, tad rahitam. So, free from dust particles jatam. Anybody else?
Arjunasya tapo vaibhavena vanacharanam kashtan jatam ahara vihareshu kleshaha anubhutaha te sarve इन्द्रसमीपं गताः अर्जुनस्य तपः विचारं तस्मै निर्वेदितवन्तः इदं श्रुत्वा इन्द्रः हृष्टः किन्तु स सन्तोषं न प्रकटितवान् अर्जुनस्य तपो वैभवेन वनचराणां
कष्टं जातम्
ओके विद अर्जुनस विद द हेल्प ऑफ अर्जुनस तपा ऑल द बीइंग्स इन द वन देयर कष्टम हैज बीन रिमूव्ड
नो हियर इट मींस वनचराः दोज हु लिव इन द फॉरेस्ट दे एक्सपीरियंस डिफिकल्टी
Oh, they experience difficulty. Vanacharanam kashtam jatam. Okay. Ahara vihareshu kleshah anubhutah. Ahara vihareshu
kleshaha. They had difficulty in finding food and in roaming around, etc. Because of all these unnatural changes due to Arjuna's
death. Oh, okay.
They had difficulties in their routine.
Te sarve Indra samipam gataha. So they all went near Indra Parvata, I guess.
No, Indra. They went.
Indra. Oh, they went to Indra. Okay. Te sarve Indra samipam gataha. Arjunasya tapo vicharam tasmai nirveditavantaha.
Nivedita vantaha.
So they told Indra about the Arjuna's tapa. Idam shrutva Indraha hrishtaha. Having heard this, Indra hrishtaha means, is he happy?
Happy. Arjuna is his son, no? So he is happy about it.
Okay. Kintu saha santosham na prakatitavan. But he is not expressing his happiness to all those people who came there to complain.
Correct.
Okay.
And he wants to test Arjuna further. Okay. So next.
Saha Arjunasya Parikshyam Kartum Apsarasam Sakashe Sakashaha Uktavan.
Sakashe, where is the typing error? Sakashe Uktavan.
Aksha Padehi Arjunasya Vashikaranam Kartavyam Shapabayam Mastuviti Apsarasah Prastitaha Taha Vividehi Bhushanehi Ubushitaha. So Indraha Asya Arjunasya Pariksham Kartum, he sent angels and he told them, ask them to come near, and you just by glance you have to seduce Arjuna, and shapabhayam mastu, no fear of shapa. So apsarasah they left, and they wore different kind of aparanas.
Correct. Taha vividhaihi bhushanaihi vibhushitaha. Okay, so there's only one more. So I'll quickly read this as we are already beyond time. So tapo vighnartham taha uchaihi vartalapam krutavatyah. So to break his penance, they conversed loudly near Arjuna. Hava bhavan pradarshitavatyah. Showed various movements and tried to dance and sing and attract his attention. Kintu arjunaha na vichalitaha saha jitendriyaha. So he had conquered his senses and he was not affected by their activities. Ataha tasam cheshtaha vipalaha jataha. So they failed in breaking or causing any obstruction in his penance. Taha svasthanam pratinivrattaha. They went back to their place. So Arjunaha kutra avasat. Arjunaha Indrakila parvate avasat. So tapasaha prabhavena kim abhavat. So there was a list of things. So krura mrigaha hinsrakaryam tyaktavantaha, akashaha nirmalam abhavat, bhumihi dhulika narahitam abhavat, etc. Vanasaranam kashtam kimartham jatam. So arjunasya tapaha prabhavena vanasaranam kashtam jatam, ahara vihareshu kleshaha anubhutaha. Indraha apsarasaha kim uktavan. So katakshapataihi arjunam vashi kurvantu shapabhitihi mastu iti indraha uktavan. Apsarasam cheshtaha kimartham vipalaha jataha. Arjunaha jitendriyaha asit ataha saha na vichalitaha tasam cheshtaha vipalaha. So for the exam, this portion is very important. Vastutaha kavya kathayaha bahun prashnan pruchanti ataha samyak patitva gachanti. So adya shanach pratyaye kutra ana bhavati kutra mana bhavati iti jnatavantaha. णत्वं कुत्र करणीयम् इति दृष्टवन्तः. त्रिषु लिङ्गेषु प्रथमाविभक्तिरूपाणि तेषां प्रयोगं च ज्ञातवन्तः. श्वः अन्यविभक्तिषु कथं प्रयोगः इति पश्यामः. सुभाषितद्वयम् अधीतम्, ऐश्वर्यस्य विभूषणं सुजनता, शीलं परम्भूषणम्, एवं दिनयामिन्यौ सायं प्रातः. किरातार्जुनीयस्य काव्यकथायां तपोभङ्गप्रयत्नः दृष्टः. श्वः शानच् प्रत्ययस्य विषयं काव्यकथां च अनुवर्तयामः. गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो.